अथ सांख्ययोगनाम द्वितीयोऽध्यायः संजय उवाच तं तथा कृपयाभीष्टम् अश्रुपूर्णाकुलेक्षणम् वीषिदन्तम् इदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं